शस्त्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।
नमो नमः प्रियाः श्रोतृवृन्दाः, अहम् रचाचार कार्यक्रमस्य उद्घोषिका स्वागतं करोमि भवताम् सर्वेषाम् संस्कृत साप्ताहिकी इत्येतस्मिन् कार्यक्रमे। अयि श्रोतारः, यथा भगवान् गणेशः सर्वेषाम् कार्याणाम् निर्विघ्न समाप्त्यर्थम् सर्वदा स्मर्यते, तथैव आगच्छन्तु कार्यक्रमस्य निर्विघ्नतायै शृण्मः सुमधुरम् सुभाषितम्, यच्च प्रस्तौति अस्माकम् सहयोगिनी निधि झा।
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् मणिना भूषितः सर्पः किमसौ न भयङ्करः। अर्थात असज्जन व्यक्ति चाहे विद्या में कितना भी निपुण क्यों न हो, उसका सर्वथा परित्याग करना ही ठीक है। मणि से अलंकृत सर्प क्या भयंकर नहीं होता? अर्थात जिस प्रकार मणि से सुशोभित भी सर्प भयंकर होने से त्याग दिया जाता है, उसी प्रकार दुर्जन भी विद्या को प्राप्त करके दुर्जन ही रहता है, इसलिए उसका सर्वथा परित्याग करना ही अच्छा है।
अहो सत्यम्, यथोच्यते अपि यत् स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा, सुतप्तमपि पानीयम् पुनर्गच्छति शीघ्रताम्। प्रिय मित्राणि, साम्प्रतम् अग्रे सरामः प्रसंग प्रभागम् प्रति, यत्र अद्य भगवतः शिवस्य भावपूर्णम् स्तवनम् विदधाति अस्माकम् सहयोगी नरेन्द्र दत्त सेमवालः।
शम्भो महादेव देव शिव शम्भो महादेव देवेश शम्भो शम्भो महादेव देव शिव शम्भो महादेव देवेश शम्भो शम्भो महादेव देव। पालावनम् व्रतकिरीटम् पालनेत्रार्चिषादग्ध पञ्चेषु कीटम् शूलाहतारातिकूटम् शुद्धमर्धेन्दुचूडम् भजे मार्गबन्धुम् भजे मार्गबन्धुम् भजे मार्गबन्धुम् शम्भो महादेव देव शिव शम्भो महादेव देवेश शम्भो शम्भो महादेव देव शिव शम्भो महादेव देवेश शम्भो शम्भो महादेव देव।
सुमधुरा वाणी। प्रिय बांधवाः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विक वृत्तान्तः। साम्प्रतम् साप्ताहिकी वार्ताः आदाय उपस्थिता अस्ति सुषमा कुमारी।
प्रधानमन्त्रिणा नरेन्द्र मोदिना बन्दर सेरी बेगावन स्थले ब्रूनेई नगरस्य सुल्तान हाजी हसलन बोल्किया वर्येण साकं सम्भाषणं विहितम्। भारत ब्रूनेई देशयोर्मध्ये पारस्परिक रणनीतिक दिशि विस्तृता चर्चा अपि सञ्जाता। प्रधानमन्त्री नरेन्द्र मोदी स्वीय यात्रायाः द्वितीय चरणे सिंगापुर देशं सम्प्राप्तवान्। राष्ट्रपतिना द्रौपदी मुर्मू वर्यया महाराष्ट्रस्य लातूरे विश्व शान्ति बुद्ध विहारस्य उद्घाटनं कृतम्। युक्रेन देशे मन्त्रिमण्डलस्य सदस्यैः सह बहवः अधिकारिणः स्वीय पदं त्यक्तवन्तः। तत्रत्य मन्त्रिमण्डले परिवर्तनम् अपि सम्भावितम्। ताइपे मुक्त बैडमिंटन प्रतिस्पर्धायां सतीश कुनारः करुणाकरण शंकर सुब्रमण्यम पुरुष एकल प्रतियोगितायाः प्रागुपान्त्य चक्रे प्रविष्टाः। पेरिस पैरालंपिक क्रीडासु भारतीय क्रीडकाः शॉटपुट लक्ष्य साधक लक्ष्य भेदी पावर लिफ्टिंग इत्येतासु प्रतियोगितासु भागं गृहीतवन्तः।
प्रियाः श्रोतारः, पुनः उपस्थिताहम् ज्ञान विज्ञान प्रभागान्तर्गतम् एकम् साक्षात्कारमादाय। अस्माकं सहयोगिन्या निधि तिवारी इत्यनया सह संवादाय उपस्थितो अस्ति दिल्ली विश्वविद्यालयस्य आत्माराम सनातन धर्म महाविद्यालयस्य संस्कृत विभागस्य प्राचार्यः डॉक्टर माधव गोपाल महोदयः।
प्रियाः श्रोतारः, संस्कृत साप्ताहिकेति कार्यक्रमस्य विशिष्ट विभागे प्रख्याते ज्ञान विज्ञान प्रभागे अद्य अस्माभिः साकम् आकाशवाण्यां साक्षात्काराय विशिष्ट संवादाय च उपस्थितो वर्तते दिल्ली विश्वविद्यालयस्य आत्माराम सनातन धर्म महाविद्यालयस्य संस्कृत विभागस्य प्राध्यापकः डॉक्टर माधव गोपाल महोदयः। एतेन विदुषा सह संवादाय उपस्थितास्मि निधि तिवारी। भवतां हार्दं स्वागतं व्याहरामि महोदय।
धन्यवादाः।
अस्तु महोदय, प्रथमं अहं ज्ञातुम् इच्छामि यत् संस्कृत भाषायाः कीदृशी स्थितिः महाविद्यालयेषु उतवा संस्थासु वर्तते, किं छात्राः संस्कृत भाषां प्रति रुचिं धारयन्ति, तेषां मनसि च किं चिन्तनं भवति संस्कृत भाषाम् अवधार्य?
अस्तु, साम्प्रतिके काले महाविद्यालयेषु विश्वविद्यालयेषु च संस्कृत भाषायाः संस्कृत विषयस्य वा स्थितिः भद्रतरा एव दृश्यते, यतोहि इदानीं जनेषु संस्कृतं प्रति सञ्चेतना इदानीं भद्रतरा वर्तते, सुष्ठु वर्तते। संस्कृते वृत्तयः अपि बह्व्यः सन्ति एव इदानीं, ताः प्रति जनाः सम्प्रति ते जागरूकाः सन्ति। महाविद्यालयेषु विश्वविद्यालयेषु वा इदानीं संस्कृत सम्भाषणमपि दरीदृश्यते। किञ्चित् काल पूर्वं महाविद्यालयेषु विश्वविद्यालयेषु वा जनाः संस्कृतं न वदन्ति स्म, पारम्परिक विश्वविद्यालयान् विहाय ये मुख्यधारायाः विश्वविद्यालयाः सन्ति तत्र जनाः कदाचित् संस्कृतं न वदन्ति स्म, किन्तु इदानीं संस्कृतभारत्याः स्तुत्व प्रयासेन जनाः संस्कृतं वदन्ति, संस्कृतभाषायामेव कार्यक्रमं सम्पादयन्ति, सम्भाषणं कुर्वन्ति इति द्रष्टुं शक्यते। साम्प्रतिके काले ये छात्राः सन्ति तेषां रुचिः संस्कृतं प्रति सायपि इदानीं सम्यक् एव अस्ति, यतोहि जनाः पश्यन्ति यत् संस्कृतभाषायाः प्रयोगः इदानीं व्यवहारे अपि दृश्यते। संस्कृतभाषायाम् आकाशवाणीतः दूरदर्शनतः तत्र समाचाराः प्रसार्यन्ते, तदपि ते अवलोकयन्ति शृण्वन्ति च, तो तदपि तेषां समक्षे अस्ति। संस्कृतविषये शैक्षणिकवृत्तयः अपि बह्व्यः सन्ति एव। एतदतिरिच्य संस्कृतविषयम् अधीत्य ये विविधप्रदेशेषु प्राशासनिक सेवाः सन्ति तत्र सेवायाः कृते याः परीक्षाः सन्ति तासु सज्जतां कर्तुमपि संस्कृतं सहायकं भवति, यतोहि तत्र एक विषयरूपेण स्वीकृतः अस्ति। जनाः संस्कृतं विषयम् आदाय ते सिविल सर्विस अथवा कापि परीक्षा अस्ति प्राशासनिक, तासामपि सिद्धता ते कर्तुं प्रभवन्ति, अङ्कान् अपि सम्यक्तया अर्जयन्ति। अस्य लाभः
स्कोरिङ्ग् विषयः इति अस्ति,
तस्य लाभः भवति एव जनान्, एतत् कारणमपि जनाः संस्कृतं स्वीकृत्य स्वकीयम् अध्ययनं ते कुर्वन्ति।
संस्कृतस्य महती प्रासङ्गिकता अस्ति। अस्तु महोदय, संस्कृतस्य प्रासंगिकता भवान् कथम् अवलोकयति? किं संस्कृत भाषा निहित शास्त्राणाम् उपयोगिता अधुनास्ति? ये शास्त्राणि संस्कृत भाषायां लिखितानि सन्ति तेषाम् उपयोगिता साम्प्रतिके समये अस्ति उत वा न?
पश्यन्तु, संस्कृत भाषा कापि सामान्य भाषा नास्ति। संस्कृत भाषा एका समृद्धा भाषा अस्ति यस्याम् बहूनि शास्त्राणि विरचितानि सन्ति, तानि शास्त्राणि अपि गभीरतया विरचितानि, किन्तु संस्कृतभाषा बहु समृद्धा अस्ति। विविधभाषेषु नूतनाः शब्दाः प्रयुक्ताः सन्ति, तो तेषां शब्दानां ज्ञानाय परिशीलनाय समयः आवश्यकः भवति, अध्ययनेन परिशीलनेन च विवेकं लभते जनेन।
अस्तु, यतोहि संस्कृतभाषायां लिखिताः दर्शनग्रन्थाः एवम् उपलभ्यन्ते, दार्शनिकग्रन्थान् अवलम्ब्य जनाः स्वकीयायाः चिन्तायाः विमुक्तिः स्वीकुर्वन्ति एवम् अहं मन्ये, तर्हि संस्कृतभाषायां लिखिताः दार्शनिकग्रन्थाः कथम् उपयोगिनः सन्ति?
बहु समसामयिकः प्रश्नः भवत्या उत्थापितः। इदानीं साम्प्रतिके काले बहवः जनाः तनावग्रस्ताः, विषादग्रस्ताः सन्ति, तो विषाद स्थितिम कथम त्यक्तुम ते समर्था भवेयुः अस्य कृते संस्कृत शास्त्राणाम् अध्ययनम् आवश्यकम् अथवा यदि कोऽपि जनः संस्कृत शास्त्राणि जानाति तर्हि तस्य सन्निधौ तैः उपवेष्टव्यम्। तो यदा जनाः संस्कृत दर्शन शास्त्रेषु यत् तथ्यम् यत् तत्त्वम् प्रतिपादितम् अस्ति यदा तत्त्वम् जानन्ति तदा विषादग्रस्ताः तेन भवन्ति। अर्जुनः विषादग्रस्तः आसीत् किन्तु श्रीमद् भगवद्गीतायाम् यदा श्रीकृष्णः उपदेशम् करोति तदा तस्य विषादता अपाकृतम् भवति दूरी भवति। एवमेव जनाः यदि अद्यापि श्रीमद् भगवद्गीतायाः अध्ययनम् कुर्वन्ति अथवा अष्टावक्र गीतायाः अध्ययनम् कुर्वन्ति तर्हि ते अस्य संसारस्य तत्त्वम् जानन्ति यथार्थम् जानन्ति ब्रह्म किमस्ति इति जानन्ति। तो यदा ते यथार्थम् जानन्ति तदा ते ये सांसारिक विषयान् विषयीकृत्य विषादाः भवन्ति तेषाम् दूरीकरणम् स्वयमेव भवति। तो अयमेव संस्कृतशास्त्राणाम् अध्ययनस्य लाभः अस्ति तल्लाभ अहं मन्ये यत् संसारे अभूतपूर्वः अस्ति अन्यत्र न दृश्यते।
आम् सत्यमस्ति। अस्तु महोदय, सम्प्रति संस्कृतस्य किं भविष्यं भवतः दृष्टिकोणे अस्ति? यथा भवान् साङ्गणिक क्षेत्रे नैजं विद्यावारिधि उपाधिं सम्पूरितवान्, किं प्रौद्योगिक प्राविधिक क्षेत्रयोः संस्कृतस्य स्थानम् उच्चं दरीदृश्यते?
आमाम्, पश्यन्तु अद्य प्रौद्योगिकी क्षेत्रे अपि संस्कृतस्य स्थिति सुदृढा दृश्यते। देशे बहव्यः संस्थाः सन्ति यत् संस्कृतम् आदाय प्रौद्योगिक कार्याः प्रचलन्ति, यथा जवाहरलाल नेहरू विश्वविद्यालये, हैदराबाद केन्द्रीय विश्वविद्यालये एवं सीडेक केन्द्रेषु, तत्र प्रौद्योगिकी क्षेत्रेषु संस्कृतस्य योगदानं तत्र दृश्यते। संस्कृते यत् व्याकरण विद्या उपलभ्यते, व्याकरण शास्त्रस्य निर्माणं जातम् अस्ति, तद् व्याकरणम् अनुसृत्य ये या आधुनिकाः भाषाः सन्ति तासां व्याकरणमपि जनैः इदानीं परिशील्यते, तदनुगुणं च यत् प्रौद्योगिकी विषयाः सॉफ्टवेयर इत्यादयः सन्ति तेषां निर्माणं ते कुर्वन्ति। अयं तु प्रौद्योगिकी लाभः अस्ति। किन्तु यत् भवत्या एतदपि प्रश्नं यत् संस्कृतस्य समसामयिक प्रासङ्गिकत्वं किमस्ति इदानीमस्ति वा न वा इति, अपि यावत्कालं मनुष्यजीवनमस्ति यावत्काले धारायां मनुष्याः सन्ति तावत्पर्यन्तं संस्कृतस्य प्रासङ्गिकत्वं भविष्यति एव। कथम्? यतोहि दर्शन अस्माकं दर्शनशास्त्राणि यानि सन्ति ते तत्त्वं प्रतिपादयन्ति, तत् तत्त्वं शाश्वतम् अस्ति, तत् तत्त्वम् अस्थायि नास्ति, तत् शाश्वतम् अस्ति। यत्किमपि प्रतिपादितम् अस्ति तत् ब्रह्मस्वरूप अस्ति, ब्रह्म तु शाश्वत सत्यमस्ति। जनाः यत् मायायाः यत्र एतत् सर्वं या क्रिया अस्ति तत्र तु सर्वदा भविष्यति एव, समस्याः अपि तादृशी एव भवन्ति। यादृशी समस्याः अद्य दृश्यन्ते समाजे तादृशी समस्याः कृष्णस्य समये अपि
आसीत्
आसन्। अस्मात् मम विचारः अस्ति यत् यावत्कालं मानवः अस्यां धारायां भविष्यति तावत्कालपर्यन्तं संस्कृतम् उपयोगी एव भविष्यति।
अस्तु सत्यं महोदय। अस्तु महाभागः, एतस्मै साक्षात्काराय भवता प्रदत्तः समयः, एतदर्थम् अहं कृतज्ञतां प्रकटयामि। नमो नमः।
धन्यवादः। अहमपि आकाशवाण्याम् अयं सुअवसरः प्राप्तवान् अस्मि, एतत् कृते अहमपि अनुगृहीतोऽस्मि। धन्यवादः।
अहो, रुचिकरा चर्चा। अयि संस्कृत सेवारताः श्रोतारः, आगच्छन्तु संस्कृत दिग्दर्शन प्रभागे, यत्र विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीयः सहयोगी जतिन शर्मा।
कर्णाटकस्थ शिवमोग्गा नगरस्य संस्कृत भारती तरुणोदय सेवा संघयोः आश्रये सेप्टेम्बर मासस्य प्रथमे दिनांके राज्यस्तरीया वाक् प्रतियोगिता सुसम्पन्ना। राज्यस्य संस्कृत महाविद्यालयेभ्यः शताधिकाः छात्राः समागत्य देवतात्मा हिमालयः भारतात्मा संस्कृतमिति संस्कृत भाषायां भाषणं कृत्वा स्ववाक्चातुरीं प्रादर्शयन् संस्कृत भारती पंजाब प्रांतेन दयानंद पब्लिक स्कूल पांडुसर नाभानगरे सेप्टेम्बर मासस्य प्रथमे दिनांके काचित् भव्या पुस्तक प्रदर्शिनी समायोजिता। अवधेयास्पदमिदं यत् नाभास्थेन दयानंद पब्लिक स्कूल पांडुसरेण त्रिदिवसीय साहित्य पुस्तकोत्सवः समायोजितमासीत्। तत्रैव श्री निगमस्वरूप महोदयस्य कुशल नेतृत्वे संस्कृत पुस्तकानां प्रदर्शिनी अपि समायोजिता। संस्कृत भारती द्वारा संचालितस्य पत्राचार पाठ्यक्रमस्य सोपानत्रयस्य पाठनं समारप्स्यते। सेप्टेम्बर मासस्य षोडशे दिनांके सोमवासरे प्रथमः वर्गः भविष्यति। मिथिला विश्वविद्यालयस्य स्नातकोत्तर संस्कृत विभागे संचालितस्य संस्कृताध्ययन केन्द्रस्य पाठ्यक्रमेषु सेप्टेम्बर मासस्य विंशतिः दिनांकं यावत् नामांकनं कर्तुमर्हन्ति।
प्रियाः श्रोतारः, आयान्तु कार्यक्रमस्य अग्रे बालवल्लरी प्रभागे, यत्र बालानां ज्ञानवर्धनाय साधना शर्मणा सह शृण्मः प्रख्याते अमरकोशे भगवतः श्री गणेशस्य विविधानि नामानि कवितारूपेण।
बालाः, मित्रस्य भगवतः गणपतेः गृहे आगमनं जातम्। जानन्ति बालाः, भवताम् अस्य मित्रस्य गणेशस्य अनेकानि नामानि सन्ति। तेषु अद्य अहम् श्री अमर सिंह विरचिते नामलिङ्गानुशासने अर्थात् अमरकोशे वर्णितान् अष्टौ पर्यायवाचिनः शब्दान् कथयामि। विनायको विघ्नराज द्वैमातुरगणाधिपाः अप्येकदन्तहेरम्ब लम्बोदर गजाननाः। तर्हि गणेशस्य अष्टौ नामानि, विनायकः, विघ्नराजः, द्वैमातुरः, गणाधिपः, एकदन्तः, हेरम्बः, लम्बोदरः, गजाननः। अस्तु बालाः, गणेशोत्सवस्य शुभकामनाः, पुनर्मिलामः।
प्रियाः सहृदयाः श्रोतारः, बालवल्लरी प्रभागस्य अनन्तरम् अग्रिमः प्रभागो अस्ति एकं भारतं श्रेष्ठं भारतम् इति, यत्र अस्माकं सहयोगिनी मुदिता वेतालः श्रावयति संस्कृत हिन्दी राजस्थानी भाषासु कानिचन वाक्यानि।
प्रथमं वाक्यमस्ति, भारतस्य प्रथमोपराष्ट्रपतिः, द्वितीयः राष्ट्रपतिः च डॉक्टर सर्वपल्ली राधाकृष्णनः अवर्तत। पहला वाक्य है, भारत के प्रथम उपराष्ट्रपति तथा द्वितीय राष्ट्रपति डॉक्टर सर्वपल्ली राधाकृष्णन जी थे। राजस्थानी में भारत रा पहला उपराष्ट्रपति और दूजा राष्ट्रपति डॉक्टर सर्वपल्ली राधाकृष्णन। द्वितीय वाक्यमस्ति, डॉक्टर राधाकृष्णन गत शताब्दस्य चतुःपञ्चाशततमे वर्षे भारत रत्न सम्मानेन सम्मानितः। दूसरा वाक्य है, डॉक्टर राधाकृष्णन जी को सन 1954 में भारत रत्न से सम्मानित किया गया। राजस्थानी में सन 1954 मोए डॉक्टर राधाकृष्णन जी ने भारत रत्न मिल्यो। तृतीय वाक्य मस्ती, डॉक्टर राधाकृष्णन भारतीय संस्कृतेः संवाहकः, प्रख्यात शिक्षाविदः, महान दार्शनिकश्च अवर्तत। तीसरा वाक्य है, डॉक्टर राधाकृष्णन भारतीय संस्कृति के संवाहक, प्रख्यात शिक्षाविद, महान दार्शनिक थे। राजस्थानी में डॉक्टर राधाकृष्णन भारतीय संस्कृति रा संवाहक, प्रख्यात शिक्षाविद एवं महान दार्शनिक। धन्यवादाः।
निश्चितमेव ज्ञानवर्धकः स्यात् अयम् संगमः। अयि श्रोतृवृन्दाः, अधुना तु कालः समायातः प्रस्थान वेलायाः। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवम् एकम् अंकमादाय पुनः उपस्थास्यामहे। तावत्पर्यन्तम् भवन्तः सर्वे स्वीय जिज्ञासां प्रतिपुष्टि प्रक्रियाम् अस्मभ्यम् प्रेषितुम् शक्नुवन्ति। अस्माकम् ईमेल संकेतो वर्तते nsdsanskrit@gmail.com इति। नमो नमः।